एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः अर्थतन्त्रस्य समष्टिगतार्थिक परिसूचकाङ्काः सुधारोन्मुखाः सुदृढाश्च जायमानाः सन्तीति अर्थमन्त्रालयेन ज्ञापितम् वर्तते। मन्त्रालयस्य अनुसारेण राजस्व संघीय व्यय च वृद्धिः सम्भूतास्ति। बाह्यक्षेत्राणाम् सबलीभवनेन सह आन्तरार्थतन्त्रम् क्रमशः सुदृढम् जायमानम् च वर्तते। गतार्थिक वर्षे राजस्व संकलनम् 10.31%, संघीय व्यय 10.73%, व्यय 10.75%, संचित व्यय 16%, वित्तीय व्यवस्थायाः पक्षस्य व्यय 10.67% च वर्धितानि सन्तीति अर्थमन्त्रालयस्य प्रवक्ता श्यामप्रसाद भण्डारी अज्ञापयत्। गतार्थिक वर्षे आर्थिक वृद्ध्यनुपात 10.61% आसीदिति अनुमितम् वर्तते। अर्थसचिवेन घनश्याम उपाध्यायेन वर्तमानार्थिक वर्षस्य प्रथमदिने ह्य सर्वेषु मन्त्रालयेषु आयोगेषु सचिवालयेषु कार्यालयेषु च वर्तमानार्थिक वर्षस्य आयव्ययविवरणस्य क्रियान्वयनस्य कृते मार्गदर्शन विवरणम् प्रेषितमस्ति। आयव्ययकेन अवलम्बितस्य उद्देश्यस्य प्राप्तये उपलब्ध स्रोतसाम् अधिकतमम् उपयोगम् कृत्वा मितव्ययिताम् कृत्वा प्रभावकारी कार्य सम्पादनम् कर्तुम् मन्त्रालयेन अनुरुद्धमस्ति। नेकपा एमाले दलस्य केन्द्रीय सचिवालये उपवेशे पोलिट ब्यूरो निकायस्य केन्द्रीय समितेश्च उपवेशयोः विषयाणाम् निर्धारणस्य सन्दर्भे विमृष्टमस्ति। ललितपुरस्य च्यासलवर्तिनी दलकेन्द्रीय कार्यालये सञ्चलति केन्द्रीय सचिवालये उपवेशे पोलिट ब्यूरो निकायस्य केन्द्रीय समितेः उपवेशस्य च पूर्वकार्यै सह समसामयिक विषयेषु विमृष्टमस्तीति एमाले दलीय प्रचार प्रकाशन विभागस्य प्रमुख राजेन्द्र प्रसाद गौतमः असूचयत्। असौ विधानाधिवेशनस्य पूर्वकार्याणाम् कृते अद्य उपविश्यमानस्य पोलिट ब्यूरो निकायस्य उपवेशस्य श्रावणस्य पञ्चमे दिवसे उपवेक्ष्यमाणस्य केन्द्रीय समितेः उपवेशस्य च विषयाणाम् निर्धारणाय सचिवालयोपवेश एतत्पूर्वमेव आगामिनो भाद्रमासस्य 20-21 च दिवसयोः ललितपुरस्य गोदावरी स्थाने द्वितीय विधाना महाधिवेशनम् आयोजयितुम् दलेन निर्णीतम् वर्तते। गताषाढमासस्य 24 दिवसे लेन्देनद्याम् दुरापन्नेन जलविप्लवेन मितेरी सेतोः प्रवाहणानन्तरम् केरुङ स्थाने अवरुद्धान् 17-17 यानचालकान् सहचालकान् च वैकल्पिक मार्गेण स्वदेशम् प्रत्यावर्तयितुम् निर्णीतम् वर्तते। वस्तूनि आनेतुम् मैत्री सेतोः पारेस्थलम् विद्यमानान् एतान्जनान् स्वदेशम् प्रत्यावर्तयितुम् परराष्ट्र मन्त्रालयस्य माध्यमेन चीन सर्वकारः अनुरुद्धस्थिति रस्व जनपदस्य सहायक जनपदाधिकारी ध्रुव प्रसाद अधिकारी असूचयत। सम्प्रति तेषाम् भोजनस्य आवासस्य च व्यवस्था चीन पक्षेण विद्यमानास्तीति असौ असूचयत्। अस्य वर्षस्य त्रिषु मासेषु विपद घटनासु निपत्य 93 मृताः सन्ति चेत् 22 विलुप्ताः वर्तन्ते इति राष्ट्रिय विपद संकट न्यूनीकरण प्राधिकरणेन ज्ञापितम् अस्ति। गत वैशाख मासात् आषाढ मासम् यावत् त्रिषु मासेषु 45.4% जनाः आताः वर्तन्ते इति प्राधिकरणस्य प्रवक्ता उपसचिवः सुरेश सुनारः असूचयत। प्राधिकरणेन ह्य सार्वजनिकृतस्य एतद् विक्रमवर्षीयस्य विवरणस्य अनुसारेण विपद घटनासु 4137 च परिवाराः प्रभाविताः वर्तन्ते। बीपी राजमार्गे ह्यस्तनात् दिवसात् रात्रौ यातायात साधनानाम् सञ्चालनम् निषिद्धमस्ति। बीपी राजमार्गान्तर्गते काभ्रे प्रलाञ्चोक खण्डे ह्यस्तनात् दिवसात् सिन्धुली काभ्रे जनपदयो सीमक्षेत्रात् नेपाल थोक स्थानात् काभ्रे भञ्ज्याङ स्थानम् यावत् सायम् 5 प्रातः 5 यावत् यातायात साधनानि सञ्चालयितुम् निषिद्धमस्ति। राष्ट्रिय सभाया विधायन व्यवस्थापन समितौ जलस्रोतो विधेयकम् आधृत्य सैद्धान्तिकम् विमर्शनम् प्रारब्धमस्ति। समिते ह्यस्तनोपवेशे ऊर्जो जलस्रोत सेचन मन्त्री दीपक खड्का नेपालस्य जलस्रोत देशस्य अर्थतन्त्रस्य आधाररूपेण व्यवस्थितम् विधातुम् सर्वकारेण जलस्रोतो विधेयकम् आनीतमस्ति इति प्रावोचत। उपवेशे सांसदाः जलस्रोतो विधेयकेन नेपालस्य जलस्रोतसः सदुपयोगम् विधातुम् वैधानिको मार्ग निर्मास्यते इति उक्तवन्तः। सांसदाः संघे प्रदेशेषु स्थानीयस्तरेषु च जलस्रोतसाम् आवंटनमपि आवश्यकम् वर्तते इति प्रावधानस्य तत्र व्यवस्थाम् विधातुम् च बलम् प्रादुः। काष्ठमण्डप महानगरपालिकया नियमित रूपेण जलवर्षणा डेंगू संक्रमणस्य संकटः वर्धितोऽस्तीत्यतः सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। एकमासात् नैरन्तर्येण जलवर्षणेन एडिज जातीयानां मशकानां दंशनेन डेंगू संक्रमणस्य संकटः वर्धितोऽस्तीत्यतः सावधानतायै अनुरुद्धमस्तीति महानगरपालिकायाः संक्रामक रोग नियन्त्रण सम्बद्धा स्रोतो व्यक्ति ऋषि भूषालः असूचयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः जनतया सह प्रगाढम् सम्बन्धम् कृत्वा श्रमः उत्पादनम् च सहैव नीत्वा अग्रे वर्धनीये इति बलम् ददाति। वाईसीएल नेपाल संघटनस्य केन्द्रीय समित्या ह्य ललितपुरे आयोजितम् श्रमे उत्पादने च वाईसीएल संघटनम् इति अभियानस्य शुभारम्भम् विदधान अध्यक्ष प्रचण्डः अविरल वृष्ट्या जलविप्लवेभ्यश्च सम्भाविताम् क्षतिम् रोद्धुम् सहयोगाय अन्वरुणात्। अद्यतः अध्यक्ष प्रचण्ड परिवर्तनम् नाशयितुम् षड्यन्त्रम् जायमानम् अस्तीत्यतः कार्यमेतद् असफलीकर्तुम् अभियानस्यैव रूपेण अग्रे वर्धनस्य आवश्यकता अस्तीति बलम् प्रादात्। भक्तपुरस्य सूर्य विनायक नगरपालिकाया अष्टमवडा क्षेत्रस्य सिपाडोलवर्तिनी डोलेश्वर महादेवस्य मन्दिरे ह्यस्तनात् दिवसात् अष्टात्रिंशत् दिवसीय श्रावणी मेला प्रारब्धास्ति। डोलेश्वर मन्दिरे अष्टात्रिंशत् दिनानि यावत् सञ्चल्यमानायाम् मेलायाम् आसन्न लक्षत्रयम् स्वदेशीया भारतीय पर्यटकाश्च आगमिष्यन्ति इति अपेक्षितम् वर्तते इति डोलेश्वर महादेव मन्दिर संरक्षण विकास समितेः अध्यक्ष धर्मराज बस्नेत असूचयत। ह्यस्तनात् दिवसादेव सिपाडोल स्थानस्यैव प्रसिद्धे आशापुरी महादेव मन्दिरे च मासात्मक मेला प्रारब्धास्ति। नेपाल सर्वकारस्य वृत्ति प्रदातु श्रमिक संघटनस्य च मध्ये श्रमिकेभ्य न्यूनतम पारिश्रमिकम् एकोनविंशतिः सहस्राणि पञ्चाशदुत्तर पञ्चशतम् च निर्धारयितुम् सहमति दत्तास्ति। ह्य श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालये उपविष्टे त्रिपक्षीयोपवेशे सहमतिरेषा दत्तास्ति इति मन्त्रालयेन ज्ञापितमस्ति। चतुःसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीये श्रमाधिनियमे प्रत्येकं वर्षद्वये श्रमिकाणां न्यूनतम पारिश्रमिकस्य निर्धारणं कर्तव्यमिति व्यवस्था वर्तते। एतत्पूर्वं श्रमिकाणां न्यूनतम पारिश्रमिकं सप्तदश सहस्राणि शतत्रयञ्च रूप्यकाणि आसन्। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का ऊर्जा देशस्य समृद्ध्या सह सम्पृक्त विषयो वर्तते इति कथयति। विद्युत विकास विभागस्य द्वात्रिंशत्तम वार्षिकोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री खड्का एवम् अगदत् इति समाचारः।